इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां मिशन मौसम इत्येतस्य ऋतुसम्बद्धस्य अभियानस्य शुभारम्भं करिष्यति, यस्योद्देशं देशे समुचित ऋतुदशायाः अनुमानम् अपि च ऋतुं प्रति सज्जीकरणमिति वर्तते। श्रीमोदी भारतमण्डपमे भारतीय ऋतुविज्ञान विभागस्य 50-अधिकैकशततमे स्थापना दिवसावसरे अस्य अभियानस्य आरम्भं करिष्यति। मिशन मौसम इत्येतस्य अभियानस्य लक्ष्यम् अत्याधुनिक ऋतुदशा निरीक्षण तन्त्रज्ञानानि प्रणाल्यश्च विकसिताः कृत्वा स्वलक्ष्यप्राप्तिः इति वर्तते। सिंगापुरदेशस्य राष्ट्रपतिः थर्मन षण्मुगरत्नम् इत्यसौ अद्यारभ्य पञ्चदिवसीय यात्रायै भारतं प्रत्यागच्छति इति। तेन सह एकं उच्चस्तरीय मण्डलम् आयाति यस्मिन् मन्त्रिणः, सांसदाः, अधिकारिणश्च सम्मिलिताः वर्तन्ते। सिंगापुरस्य राष्ट्रपतित्वेन तस्य इयं प्रथमा भारत यात्रा भवेदिति। स्वीय प्रवासावधौ राष्ट्रपतिः थर्मन इत्येषः राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह विचार विमर्शमपि समाचरिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अपि सिंगापुरस्य राष्ट्रपतिना सह मन्त्रणां विधास्यति। राष्ट्रपतिः थर्मन इत्ययम् अस्य मासस्य 17-दिनांकतः 18-दिनांकं यावत् ओडिशायात्रां करिष्यति। राष्ट्रपतेः थर्मन इत्येतस्य यात्रया उभयोः देशयोः मध्ये द्विपक्षीयसम्बन्धेभ्यः इतोऽपि गतिं मिलिष्यति इति आशास्यते। अनया यात्रया भारत सिंगापुर देशयोः मध्ये राजनीति सम्बन्धानां स्थापनायाः 60तमायाः वर्षसम्पूर्तेः समारोहस्यापि शुभारम्भो भविष्यति। राष्ट्रिय परीक्षणाभिकरणेन एनटीए इत्यनेन 24-द्विसहस्रतमवर्षीया यूजीसी नेट परीक्षा स्थगिता, या श्वः निर्धारिता आसीत्। एकस्मिन् वक्तव्ये एनटीए इत्यनेन सूचितं यत् जनवरी मासे 15 दिनांके पोंगल, मकरसंक्रान्ति इत्यादीनाम् उत्सवानां कारणेन परीक्षां स्थगयितुं निवेदनानि समायातानि। परीक्षायाः नूतनः दिनांकः श्वः घोषयिष्यते, अपि च जनवरी मासे 16 दिनांके निर्धारिता परीक्षा पूर्वनियोजितानुसारि संचालिता भविष्यति इति। सस्यसम्बद्धः उत्सवः मकरसंक्रान्तिः इति अद्य देशस्य विविधेषु भागेषु सोत्साहम् आमान्यते। एतेन सहैव तमिलनाडुराज्ये पोंगल पर्व, गुजराते उत्तरायणम्, असमे भोगली बिहू पर्व, पश्चिमबंगाले च पौषसंक्रान्ति पर्व च महता उल्लासेन आमान्यते। भारतीय ऋतुविज्ञान विभागेन ह्यः पंजाब, हरियाणा, चण्डीगढ़, हिमाचल प्रदेश, ओडिशा, उत्तर प्रदेशे च अहर्निशं भीषण कुञ्झटिकायाः अनुमानः अभिव्यक्तः। आगामीषु 2-3 दिवसेषु राजस्थान, बिहार, उत्तराखण्ड, उपहिमालयीय क्षेत्राणि, पश्चिमबंगाल, सिक्किम, पूर्वोत्तरीय राज्येष्वपि यथावत् स्थितेः अनुमानः विभागेन प्रकाशितः। राष्ट्रिय राजधानी क्षेत्रे दिल्ल्यां कुञ्झटिकायाः कारणेन दृश्यता न्यूनीयुता भविष्यति। एतस्मात् कारणात् बहूनि रेलयानानि विलम्बेन प्रचलन्ति। रेलविभागानुसारि दिल्लीं प्रति आगम्यमानानि 12 रेलयानानि विलम्बेन प्रचलन्ति इति। वार्ताः।